इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी प्रत्येकस्मिन् क्षेत्रे आत्मनिर्भरतायाः आह्वानम् अकरोत्। विदेशेषु भारतस्य अवलम्बनं तस्य बृहत्तमेषु शत्रुषु अन्यतमम् अस्तीति दृढीकृतवान्। सः अवदत् यत् 47-2000 वर्षपर्यन्तं विकसित भारतस्य संकल्पं साधयितुं भारतं स्वावलम्बी राष्ट्ररूपेण विश्वस्य समक्षं स्थातुं समयः इदमेव अस्ति। प्रधानमन्त्री ह्यः भावनगरे समुद्र से समृद्धि इति कार्यक्रमे सम्बोधयन् आसीत्।
देश के विकास के संकल्प को हम दूसरों की निर्भरता पर नहीं छोड़ सकते, हम भावी पीढ़ी के भविष्य को दांव पर नहीं लगा सकते। और इसलिए भाइयों बहनों, 100 दुखों की एक ही दवाई है और वो है आत्मनिर्भर भारत। लेकिन इसके लिए हमें दूसरे देशों पर अपनी निर्भरता लगातार कम करते जाना होगा।
भारतं समुद्रीय महाशक्तिः निर्मातुं स्वस्य सर्वकारस्य दूरदृष्टिं प्रकटयन् प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् 47-2000 वर्षपर्यन्तं वैश्विक समुद्रीय व्यापारे देशस्य भागं त्रिगुणितं कर्तुं लक्ष्यमस्ति। कार्यक्रमावधौ प्रधानमन्त्रिणा 32,000 कोटि रूप्यकाणां बहुविध विकास परियोजनानां उद्घाटनं शिलान्यासं च विहितम्। श्रीमोदी मुंबई अंतर्राष्ट्रीय क्रूज टर्मिनल इत्यस्यापि उद्घाटनं विहितवान्, अपि च 8,77,000 कोटि रूप्यकाणां अनेकासां प्रमुख सागरीय परियोजनानां उद्घाटनं कृतवान्। भारतस्य ऐतिहासिकस्य सागरीय शक्ति विषये प्रवदन् प्रधानमन्त्री अवदत् यत् एकः समयः आसीत् यदा विश्वस्य 40-50% यावत् सागरीय व्यापाराः भारते निर्मितानां नौकायानेन क्रियते स्म। केन्द्रीय गृहमन्त्री अमितशाहः अवदत् यत् आगामि वर्षस्य मार्चमासपर्यन्तं वामपक्षस्य उग्रवादः देशात् पूर्णतया उन्मूलितः भविष्यति। एकेन निज वाहिन्या सह वार्तालापं कुर्वन् श्रीशाहः अवदत् यत् सर्वकारस्य प्रयत्नेन पूर्वदशके पूर्वोत्तर वामपक्ष उग्रवाद प्रभावित क्षेत्रैः सह त्रिषु प्रमुखेषु क्षेत्रेषु हिंसायाः घटनायां 75% यावत् न्यूनता समागता। विदेशमन्त्रालयः अवदत् यत् अमेरिकादेशस्य H-1B वीजा कार्यक्रमे प्रस्तावित प्रतिबन्धनेन सम्बद्धोपायानां पूर्णप्रभावानां च भारतीय उद्योगं समेत्य सम्बद्धपक्षैः अध्ययनं प्रचलति। विदेशमन्त्रालयस्य प्रवक्ता रणधीर जायसवालः एकस्मिन् वक्तव्ये अवदत् यत् भारतामेरिकादेशयोः उद्योगजगतः नवाचारेषु रचनात्मकतायां च रुचिः अस्ति तथा च अग्रे सर्वोत्तममार्गेषु परिचर्चाः अपेक्षितास्ति। केन्द्रीय वाणिज्योद्योगमन्त्री पीयूष गोयलः श्वः प्रतिनिधिमण्डलेन सह अमेरिकादेशस्य यात्रां करिष्यति। मन्त्रालयः एकस्मिन् वक्तव्ये अवदत् यत् प्रतिनिधिमण्डलस्य परस्पर लाभप्रद व्यापारसन्धेः शीघ्र निष्कर्षः प्राप्तुं चर्चाम् अग्रे नेतुं योजनास्ति इति। सुप्रसिद्धः अभिनेता निर्देशकः चलचित्र निर्माता च मोहनलालः 23,000 वर्षस्य प्रतिष्ठितेन दादा साहेब फालके पुरस्कारेण सम्मानितः भविष्यति। सामाजिकान्तर्जालीये सन्देशे सूचना प्रसारण मन्त्रालयः अवदत् यत् दादा साहेब फालके पुरस्कार चयन समितेः अनुशंसया भारतीय चलचित्रे विशिष्ट योगदानाय मलयालम् अभिनेतुं पुरस्कारं दातुं सर्वकारः निर्णयम् अकरोत्। प्रधानमन्त्री नरेन्द्र मोदी, गृहमन्त्री अमितशाहः च पुरस्कारार्थं चयनाय श्रीमोहनलालम् अभिनन्दितवन्तौ। सूचना प्रसारण राज्यमन्त्री एल मुरुगनः अवदत् यत् प्रधानमन्त्रिणः नरेन्द्र मोदिनः नेतृत्वे 25 कोटि जनाः दारिद्र्यात् बहिः समागताः सन्ति। ह्यः नवदिल्ल्यां मोदिनोमिक्स् अ जर्नी ऑफ इन्क्लूसिव ग्रोथ इति पुस्तकस्य विमोचनानन्तरं मन्त्री अवदत्। 20-20 एशिया क्रिकेट प्रतिस्पर्धायाम् अद्य दुबई नगरे भारत पाकिस्तानयोः मध्ये द्वितीया स्पर्धा भविष्यति इति वार्ताः।